एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपालस्य पेयजल स्वच्छतायाः विकास सम्बद्धे संविदापत्रे नेपाल भारतयोर्मध्ये हस्ताक्षराणि सम्भूतानि सन्ति। भारतस्य नवदेहल्याम् ह्य आयोजिते विशेष कार्यक्रमे नेपालस्य पक्षतः पेयजल मन्त्री प्रदीप यादवः, भारतस्य पक्षतः जलशक्ति मन्त्री सीआर पाटिल इति च संविदापत्रे हस्ताक्षराणि विहितवन्तौ इति पेयजलावकर व्यवस्थापन विभागस्य महानिर्देशकः स्थपतिः रामकुमार श्रेष्ठः अज्ञापयत्। नेपालस्य पेयजलस्य स्वतसो विकासाय स्वच्छ पेयजलस्य प्राप्तये स्वच्छतायाः प्रवर्धनाय अवकरस्य व्यवस्थापनाय च नेपाल सर्वकारस्य प्रयासस्य इतोऽपि सशक्तिकरणं संविदापत्रस्य लक्ष्यमस्ति इति स्थपतिः श्रेष्ठ असूचयत्। आराष्टम सार्वजनिक साधनानां गमनागमन स्थले काष्ठमण्डपस्य गंगबुवर्तिनी नूतन बस विश्रान्तिस्थले विद्यमानेभ्य सर्वेभ्यः चिटिका ग्रहण कक्षेभ्य अनलाइन प्रणाल्याः माध्यमेन चिटिका ग्रहणस्य कार्यम् प्रारब्धमस्ति। देशस्य एकमात्रम् राष्ट्रिय बस विश्रान्तिस्थलम् प्रविधि मैत्री सम्पाद्य यात्रिभ्यः सहजरूपेण सेवायाः प्रदानार्थम् बस विश्रान्तिस्थलस्य सप्तचत्वारिंशतः चीटिका ग्रहण कक्षेभ्यः अनलाइन प्रणाल्याः माध्यमेन चीटिका ग्रहणस्य कार्यम् प्रारब्धमस्ति। काष्ठमण्डप महानगरपालिकया सह संविदां कृत्वा लोत्से बहुद्देशीय प्राली संस्थया संचालिते नूतन बस विश्रान्तिस्थलेऽस्मिन् यातायात व्यवसायिनां सहकार्येण बस विश्रान्तिस्थलस्य सर्वे चीटिका ग्रहण कक्षाः अनलाइन प्रविधियुताः सम्पादिताः सन्तीति लोत्से बहुद्देशीय प्राली संस्थायाः मानव संसाधन प्रमुखः पंकज मल्लः असूचयत्। काष्ठमण्डपस्य अस्माद् बसविश्रान्तिस्थलात् सम्प्रति आराष्टम् सप्ततेः जनपदानाम् कृते सार्वजनिक यातायात साधनानि सञ्चल्यमानानि वर्तन्ते। लुम्बिनी बौद्ध विश्वविद्यालयेन अमेरिका देशस्य क्यालिफोर्निया राज्ये अध्ययन केन्द्रस्य स्थापनायै घोषणा विहिता अस्ति। बौद्धाध्ययन संकायान्तर्गतस्य स्नातकोत्तर कक्षायाः अल्पकालिक पाठ्यक्रमस्य च शैक्षिक कार्यक्रमस्य सञ्चालनार्थं क्यालिफोर्निया राज्ये अध्ययन केन्द्रस्य स्थापना विद्यमानास्ति। विश्वविद्यालयस्य उपकुलपतिः प्राध्यापकः डाक्टर सुवर्णलाल वज्राचार्यः या लुम्बिन्याम् आयोजिते कार्यक्रमे क्यालिफोर्निया राज्य अध्ययन केन्द्रस्य स्थापनायाः पश्चात् कतिचित् सप्ताहाभ्यन्तरे प्रवेशस्य प्रक्रिया प्रारप्स्यते इति असूचयत्। विश्व सम्पदि सूचीकृतस्य स्वयम्भुवर्तिनः प्रताप पुर मन्दिरस्य अनन्तपुर मन्दिरस्य च जीर्णोद्धारस्य कार्यम् सम्पन्नमस्ति। स्वयम्भूस्थानस्य संरक्षणम् विहितवत्याः स्वयम्भू व्यवस्थापन संरक्षण महासमित्याः उभयोरपि मन्दिरयोः जीर्णावस्थाम् प्राप्तेः अनन्तरम् वर्षाभ्यन्तरे सम्भार कार्यम् विहितमस्ति। पुरातत्व विभागेन पुरातन स्वरूपे एव सम्भार कार्यम् विधातुम् समित्यै अनुमति प्रदानानन्तरम् नवीन प्रविधेः प्रयोगम् विधाय सम्भारस्य रंगलेपनस्य च कार्यम् प्रपूरितमस्तीति महासमितेः सचिवः चन्द्ररत्न बुद्धाचार्यः अज्ञापयत्। द्वासप्तत्यधिकद्विसहस्रतम विक्रमवर्षस्य भूकम्पस्य कारणेन मन्दिरयोः अनयोः क्षतिः प्रापितासीत्। प्रताप मल्लेन निर्मिते एते मन्दिरे ऐतिहासिक पुरातात्विक महत्वस्य वर्तेते। पूर्व युवराजः पार्श्वशाह पुनः हृदयाघातस्य पश्चात् नर्भिक चिकित्सालयम् प्रवेशितोऽस्ति। चिकित्सालयम् प्रवेशितस्य शाहस्य एनजीओ प्लास्टिक नाम्नि चिकित्सा सेवा सम्भूता अस्ति। सम्प्रति स्वास्थ्यावस्था सुधारोन्मुखा अस्ति इति उपचारे संलग्नैः चिकित्सकैः ज्ञापितम् वर्तते। चिकित्सकस्य अनुसारेण पूर्व युवराजे पारस इत्यस्मै चतुर्थवारम् हृदयाघातः अयम् सम्भूतोऽस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति नैतिक मूल्य मान्यते सदाचारः योगश्च सभ्यसमाजस्य मेरुदण्डो वर्तते। सर्वोदय सेवाश्रमेण स्थापितस्य नरकान्तयुग राष्ट्रिय पुरस्कारस्य भैरव सदाचार राष्ट्रिय पुरस्कारस्य च प्रदान कार्यक्रमे पूर्वेद्यो राष्ट्रपतिः पौडेलः योग शिक्षायाः स्वस्थ जीवनशैल्याः मानव सेवायाश्च माध्यमेन समाजे समीचीनं परिवर्तनम् आनेतुं शक्यते इति प्रावोचत। राष्ट्रपति पौडेलः विंशतेः वर्षेभ्यः अपि अधिकसमयात् लमजुङ जनपदे सक्रियेण सर्वोदय सेवाश्रमेण योग राष्ट्रिय पुरस्कारस्य भैरव सदाचार राष्ट्रिय पुरस्कारस्य च स्थापनां विधाय उदाहरणीयं कार्यं विहितम् अस्ति इति अगदत्। तदवसरे प्राध्यापकः विद्यानाथोपाध्याय खिलराज रेग्मी च सम्मानितौ आस्ताम्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा नेपाली कांग्रेस नेकपा एमाले दलयोः गठबन्धनस्य वर्तमान सर्वकारः एकताबद्धो भूत्वा अग्रे वर्धमानो वर्तते इति निगदति। दलस्य केन्द्रीय नीत्यनुसन्धान प्रशिक्षण प्रतिष्ठानस्य आयोजनायां ह्यस्तनात् दिवसात् भैरवस्थाने प्रारब्धे प्रतिनिधि सभा क्षेत्रीय सभापतिन् क्षेत्रीय प्रशिक्षण शाखा प्रमुखांच उद्देश्य विहिते प्रशिक्षणाभिमुखीकरण कार्यक्रमे सभापति देउवा विपुल दलद्वयं मिलित्वा सर्वकार संघटनस्य पश्चात् देशे आशाया संचार सम्भूतोस्तीति अवोचत। सभापति देउवा नेपाली कांग्रेस दले विभिन्नानां मतभेदानां सम्भावनाया सत्वादपि ते मतभेदा पारस्परिक विमर्शनस्य माध्यमेन समाधातुं शक्यन्ते इति उदैरयत। नेपाली कांग्रेस दलस्य सुदूर पश्चिम प्रदेशस्य प्रथमं सम्मेलनम् अस्यैव फाल्गुन मासस्य षड्विंशे दिवसे आयोक्ष्यते। कांग्रेस दलस्य प्रदेश कार्य समित्या ह्य धनगढ़ी नगरे आयोजिते पत्रकार सम्मेलने सभापतिः वीरबहादुर बलायर जनकेन्द्रितस्य कार्यक्रमस्य संघटन सुदृढीकरणस्य च योजनां निर्मातुं सम्मेलनम् आयोक्ष्यमाणम् अस्ति इति असूचयत। सम्मेलने आप्रदेशं पञ्चशताधिक प्रतिनिधीनां सहभागिता भविष्यति इति असौ अगदत्। सभापतिः बलायर सम्मेलनेन राजनीतिकावस्थायाः अर्थतन्त्रस्य शैथिल्यावस्थायाः तत्र उत्पन्नायाः समस्यायाश्च विषयेषु विमर्शनं विधाय त्रयाणामेव स्तराणां सर्वकारेभ्यः आवश्यकाः परामर्शाः प्रदास्यन्ते इति असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन मन्त्री परिषद परामर्शेन पूर्ण बहादुर नेपाली श्रीलंका देशस्य कृते नेपालस्य आवासीय राजदूत पदे नियुक्तो स्थिति पूर्वेद्यो राष्ट्रपतेः कार्यालयेन विज्ञप्तिं प्रकाश्य ज्ञापितमस्ति। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी राजनीतिक दलैः कठिन परिस्थितौ अपि लोकतान्त्रिक मूल्य मान्यताः आदर्शाश्च आत्मसात् कर्तव्याः इति बलं ददाति। पत्रकारेण गणेश पाण्डे विधेन सम्पादितस्य केपी शर्मा ओली सपना संघर्ष संकल्प इति नाम्नः पुस्तकस्य प्रधानमन्त्रिणः ओलिनः उपस्थितौ ह्य लोकार्पणं विदधति पूर्व राष्ट्रपतिः भण्डारी। पुस्तकेन समृद्धो नेपाल सुखिनो नेपालिनश्चेति लक्ष्यं सफलीकर्तुम् अतिरिक्तः उत्साह मेलिष्यति इति विश्वासं व्यक्तवती। तदवसरे पूर्व राष्ट्रपतिः भण्डारी प्रधानमन्त्रिणा ओलिना स्वस्य संघर्षमय जीवनस्य राजनीतिक यात्रायाश्च अग्रे वर्धनस्य सन्दर्भे दृष्टान् स्वप्नम विहितम संघर्षम विहितान विशिष्ट संकल्पांच अतिरिक्तम सार्वजनिकर्तुम पुस्तकमिदं महत्वपूर्णं शीर्षकीति उदैरयत। पुस्तके प्रधानमन्त्रिणः ओलिनः सहयात्रिणां राजनीतिज्ञानां अर्थविदां सामाजिक व्यक्तिनां च लेखा अपि समाविष्टाः वर्तन्ते इति समाचाराः।